त्रयस्त्रिंशः सर्गः सोऽवतीर्यद्रुमात्तस्माद् विद्रुमप्रतिमाननः विनीतवेषः कृपणः प्रणिपत्योपसृत्य च तामब्रवीन्महातेजा हनूमान्मारुतात्मजः शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा कानुपद्मपलाशाक्षी क्लिष्टकौशेयवासिनी द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते किमर्थं तव नेत्राभ्यां वारिस्रवति शोकजं पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् सुराणामसुराणां वा नागगन्धर्वरक्षसां यक्षाणां किन्नराणां वा का त्वं भवसि शोभने का त्वं भवसि रुद्राणां मरुतां वा वरानने वसूनां हि वरारोहे देवता प्रतिभासि मे किन्नु चन्द्रमसाहीना पतिता विबुधालयात् रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता का त्वं भवसि कल्याणी त्वमनिन्दितलोचने कोपाद्वा यदि वामोहाद्भर्तारमसि ते क्षणे वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धते को नु पुत्रः पिता भ्राता भर्ता वाते सुमध्यमे अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि रोदनादति निःश्वासाद्भूमि संस्पर्शनादपि न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् व्यञ्जनानि च ते यानि लक्षणानि च लक्षये महिषी भूमिपालस्य राजकन्यासि मे मता रावणेन जनस्थानाद्बलादपहृता यदि सीता त्वमसि भद्रन्ते तन्ममाचक्ष्व पृच्छतः यथा हि तव वैदैन्यं रूपं चाप्यति मानुषं तपसा चान्वितो वेशस्त्वं राममहिषी ध्रुवं सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितं पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः दुहिता जनकस्याहं वैदेहस्य महात्मनः सीता च नाम नाम्नाहं भार्या रामस्य धीमतः समा द्वादश तत्राहं राघवस्य निवेशने भुञ्जानामानुषान् भोगान् सर्वकामसमृद्धिनी तत्र त्रयोदशे वर्षे राज्ये नीक्ष्वाकुनन्दनम् अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने कैकेयी नाम भर्तारं देवी वचनमब्रवीत् न पिबेयन्न खादेयं प्रत्यहं मम भोजनम् एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम तच्चेन्न विततं कार्यं वनं गच्छतु राघवः स राजा सत्यवाग्देव्या वरदानमनुस्मरन् मुमोहवचनं श्रुत्वा कैकेय्याः क्रूरमप्रियं ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत स पितुर्वचनं श्रीमानभिषेकात् परं प्रियं मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किञ्चिदप्रियम् अपि जीवितहेतोर्वा रामः सत्यपराक्रमः सविहायोत्तरीयाणि महार्हाणि महायशाः विसृज्य मनसा राज्यं जनन्यैमान् समादिशत् साहन्तस्याग्रतस्तूर्णं प्रस्थितावनचारिणी न हि मे तेन हीनाय वासस्वर्गेऽपि रोचते प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ते वयं भर्तुरादेशं बहुमान्यदृढव्रताः प्रविष्टास्म पुरा दृष्टं वनं गम्भीरदर्शनं वसतो दण्डकारण्ये तस्याहममितौजसः रक्षसापहृता भार्या रावणेन दुरात्मना द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् इत्यार्षे श्रीमद्रामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः चतुस्त्रिंशः सर्गः तस्यास्तद्वचनं श्रुत्वा हनुमान् हर्यूथपः दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् अहं रामस्य सन्देशाद्देवि दूतस्तवागतः वैदेहि कुशली रामस्त्वाञ्च कौशलमब्रवीत् यो ब्राह्ममास्त्रं वेदांश्च वेदवेदविदाम्वरः सत्त्वान् दाशरथी रामो देवि कौशलमब्रवीत् लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः कृतवान् शोकसन्तप्तः शिरसा तेऽभिवादनं सातयोः कुशलं देवी निशम्य नरसिंहयोः प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा एति जीवन्तमानन्दो नरं वर्षशतादपि तया समागते तस्मिन् प्रीतिरुत्पादिताद्भुता परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः तस्यास्तद्वचनं श्रुत्वा हनुमान् हर्यूथपः सीताया शोकदीनाया समीपमुपचक्रमे यथा यथा समीपं स हनुमानुपसर्पति तथा तथा रावणं सा तं सीता परिशङ्कते अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे रूपान्तरमुपागम्य स एवायं हि रावणः तामशोकस्य शाखांसा विमुक्त्वा शोककर्षिता तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहितां अवन्दत महाबाहुस्ततस्ताञ्जनकात्मजाम्। सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत। तन्दृष्ट्वा वन्दमानन्तु सीता शशिनिभानना। अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा। मायां प्रविष्टो मायावी यदि त्वं रावणस्वयं उत्पादयसि मे भूयः सन्तापं तन्न शोभनम्। स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत। जनस्थाने मया दृष्टस्त्वं स एवासि रावणः। उपवासकृशान्दीनां कामरूपनिशाचर। सन्तापयसि मां भूयः सन्तप्तान् तन्न शोभनम्। अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्। यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे। गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथारयः। अहो स्वप्नस्य सुखता याहमेवं चिराहृता। प्रेषितन्नाम पश्यामि राघवेण वनौकसं। स्वप्नेऽपि यद्यहं वीरं राघवं सह लक्ष्मणं। पश्येयन्नावसीदेयं स्वप्नोऽपि मम मत्सरे। नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरं। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम। किन्नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्। उन्मादजो विकारो वा स्यादियं मृगतृष्णिका। अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुद्ध्ये चाहमात्मानमिमं चापि वनौकसम्। इत्येवं बहुधा सीता सम्प्रधार्य बलाबलं। रक्षसां कामरूपत्वान्मेनेतं राक्षसाधिपम्। एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरञ्जनकात्मजा। सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तं सम्प्रहर्षयत्। आदित्य इव तेजस्वी लोककान्तशशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा। रूपवान् सुभगश्रीमान् कन्दर्प इव मूर्तिमान्। स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः। बाहुच्छायामवष्टब्धो यस्य लोके महात्मनः। अपकृष्याश्रमपदान् मृगरूपेण राघवम्। शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्। न चिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान्। रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः। त्वद्वियोगेन दुःखार्तः सत्त्वां कौशलमब्रवीत्। लक्ष्मणश्च महातेजा सुमित्रानन्दवर्धनः अभिवाद्य महाबाहुः सत्वां कौशलमब्रवीत् रामस्य च सखा देवी सुग्रीवो नाम वानरः राजा वानरमुख्यानां सत्वां कौशलमब्रवीत् नित्यं स्मरति रामस्त्वां ससुग्रीवः स लक्ष्मणः दिष्ट्या जीवसि वैदेही राक्षसी वशमागता न चिराद् द्रक्ष्यसे रामं लक्ष्मणं च महाबलं मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् अहं सुग्रीवसचिवो हनुमान्नाम वानरः प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिं कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् नाहमस्मि तथा देवी यथा मामवगच्छसि विशङ्कात्यज्यतामीषा श्रद्धत्स्ववदतो मम इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः पञ्चत्रिंशः सर्गः तान्तु रामकथां श्रुत्वा वैदेही वानरर्षभात् उवाच वचनं सान्त्वमिदं मधुरया गिरा क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणं वानराणान्नराणाञ्च कथमासीत् समागमः यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर तानि भूयः समाचक्ष्व नमांशोकः समाविशेत् कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशं कथमूरु कथं बाहु लक्ष्मणस्य च शंसमे एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ततो रामं यथा तत्त्वमाख्यातुमुपचक्रमे जानन्ति बत दिष्ट्या मां वैदेहि परिपृच्छसि भर्तुः कमलपत्राक्षी संस्थानं लक्ष्मणस्य च यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै लक्षितानि विशालाक्षी वदत शृणुतानि मे रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे तेजसादित्यसङ्काशः क्षमया पृथिवी समः बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः रामो भामिनी लोकस्य चातुर्वर्ण्यस्य रक्षिता मर्यादानां च लोकस्य कर्ता कारयिता च सः अर्चिष्मानर्चितोत्यर्थं ब्रह्मचर्यव्रते स्थितः साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणां राजविद्याविनीतश्च ब्राह्मणानामुपासिता श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः विपुलांसो महाबाहुः कम्बुग्रीवशुभाननः गूढजत्रुसुताम्राक्षो रामो देवीजनैश्रुतः दुन्दुभिस्वननिर्घोषस्निग्धवर्णः प्रतापवान् समःसमविभक्ताङ्गो वर्णं श्यामं समाश्रितः त्रिस्थिरस्त्रिप्लवम्बश्च त्रिसमस्त्रिषुचोन्नतः त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः सत्यधर्मपरश्रीमान् सङ्ग्रहानुग्रहे रतः देशकालविभागज्ञः सर्वलोकप्रियं वदः भ्राता तस्य च द्वैमात्रः सौमित्रिरपराजितः अनुरागेण रूपेण गुणैश्चैव तथाविधः तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ विचिन्वन्तौ महीङ्कृत्स्नामस्माभिरभिसङ्गतौ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धरां ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ऋष्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनं वयन्तु हरिराजन्तं सुग्रीवं सत्यसङ्गरं परिचर्यास्महे राज्यात् पूर्वजेनावरोपितं ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ ऋष्यमूकस्य शैलस्य रम्यं देशमुपागतौ सतौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः तयोः समीपं मामेव प्रेषयामास सत्वरं तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभु रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ पृष्ठमारोप्य तन्देशं प्रापितौ पुरुषर्षभौ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ परस्परकृताश्वासौ कथया पूर्ववृत्तया तन्ततः सान्त्वयामास सुग्रीवन्लक्ष्मणाग्रजः स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ततस्त्वन्नाशजनशोकं रामस्याक्लिष्टकर्मणः लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् सश्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः तदासीन्निष्प्रभोत्यर्थं ग्रहग्रस्त इवांशुमान् ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया यान्याभरणजालानि पातितानि महीतले तानि सर्वाणि रामाय आनीय हरियूथपाः संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव तानि रामाय दत्तानि मयैवोपहृतानि च स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव तेन देवप्रकाशेन देवेन परिदेवितं पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः प्रादीपयन्दाशरथेस्तानि शोकहुताशनं शयितं च चिरन्तेन दुःखार्तेन महात्मना मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः राघवः सह सौमित्रिः सुग्रीवे सन्न्यवेदयत् सतवादर्शनादार्ये राघवः परितप्यते महता ज्वलता नित्यमग्निनेवाग्निपर्वतः त्वत्कृते तम निद्रा च शोकश्चिन्ता च राघवं तापयन्ति महात्मानमग्न्यागारमिवाग्नयः तवादर्शनशोकेन राघवः परिचाल्यते महता भूमिकम्पेन महानिवशिलोच्चयः काननानि सुरम्याणि नदीः प्रस्रवणानि च चरन्नरतिमाप्नोति त्वामपश्यन्नृपात्मजे सत्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः समित्रबान्धवं हत्वा रावणं जनकात्मजे सहितौ रामसुग्रीवावुभावकुरुतां तदा समयं वालिनं हन्तुं तव चान्वेषणं तथा ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः किष्किन्धां समुपागम्य वाली युद्धे निपातितः ततो निहत्य तरसा रामो वालिनमाहवे सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिं रामसुग्रीवयोरैक्यं देव्येवं समजायत हनुमन्तं च मां विद्धि तयोर्दूतमिहागतं स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् त्वदर्थं प्रेषयामास दिशो दशमहाबलान् आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीं ततस्ते मार्गमाणा वै सुग्रीववचनातुराः चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः तेषान्नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे भृशंशोकपरीतानामहोरात्रगणागताः ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च भयाच्च कपिराजस्य प्राणास्त्यक्तुं व्यवस्थिताः विचिन्त्यवनदुर्गाणि गिरिप्रस्रवणानि च अनासाद्यपदं देव्याः प्राणास्त्यक्तुं समुद्यताः दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान् भृशंशोकार्णवे मग्नः पर्यदेवयदङ्गदः तव नाशंच वैदेही वालिनश्च वदन्तथा प्रायोपवेशमस्माकं मरणंच जटायुषः तेषां न स्वामी संदेशान् निराशानां मुमूर्षतां कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट श्रुत्वा भ्रातृवधङ्कोपादिदं वचनमब्रवीत् यवीयान् केन मे भ्राता हतः क्वच निपातितः एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः अङ्गदो कथयत्तस्य जनस्थाने महद्वधं रक्षसा भीमरूपेण त्वामुद्दिश्य यथा तथम् जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः त्वां शशंस वरारोहे वसन्तीं रावणालये तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् अङ्गदप्रमुखाः सर्वे ततः सम्प्रस्थिता वयम् विन्ध्यादुत्थाय सम्प्राप्ता सागरस्यान्तमुत्तरं त्वद्दर्शनकृतोत्साह हृष्टास्तुष्टाः प्लवङ्गमाः अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः चिन्ताञ्जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः अथाहं हरिसैन्यस्य सागरं प्रेक्ष्यसीदतः व्यवधूय भयं तीव्रं योजनानांशतं प्लुतः लंका चापि मया रात्रौ प्रविष्टा राक्षसाकुला रावणश्च मया दृष्टस्त्वञ्च शोकपरिप्लुता एतत्ते सर्वमाख्यातं यथा वृत्तमनिन्दिते अभिभाषस्व मां देवी दूतो दाशरथेरहं तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतं सुग्रीवसचिवं देवी बुद्ध्यस्वपवनात्मजं कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः तस्य वीर्यवतो देवी भर्तुस्तव हिते रतः अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह मयेयमसहायेन चरताकामरूपिणा दक्षिणादिगनुक्रान्ता त्वन्मार्गविचयैषिणा दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् अपनीष्यामि सन्तापं तवाभिगमशंसनात् दिष्ट्या हि मम नव्यर्थं देवि सागरलङ्घनं प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् माल्यवान्नाम वैदेही गिरीणामुत्तमो गिरिः ततो गच्छति गोकर्णं पर्वतं केसरी हरिः स च देवर्षिभिर्दिष्टः पिता मम महाकपिः तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिले हनुमानिति विख्यातो लोके स्वेनैव कर्मणा विश्वासार्थं तु वैदेहे भर्तुरुक्ता मया गुणाः अचिराद्राघवो देवे त्वामितो नयिता नघे एवं विश्वसिता सीता हेतुभिः शोककर्षिता उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति अतुलं च गता हर्षं प्रहर्षेण च जानकी नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजञ्जलम् चारु तद्वदनन्तस्यास्ताम्रशुक्लायते क्षणम् अशोभत विशालाक्ष्य राहुमुक्त इवोडुराट् हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनम् एतत्ते सर्वमाख्यातं समाश्वसि हि मैथिले किं करोमि कथं वाते रोचते प्रतियाम्यहं हते सुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ततोऽस्मि वायुप्रभवो हि मैथिले प्रभावतस्तत्प्रतिमश्च वानरः इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः षट्त्रिंशः सर्गः भूय एव महातेजा हनूमान् मारुतात्मजः अब्रवीत् प्रश्रितं वाक्यं सीता प्रत्ययकारणात् वानरोऽहं महाभागे दूतो रामस्य धीमतः रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकं प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना समाश्वसि हि भद्रन्ते क्षीणदुःखफलाह्यसि गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणं भर्तारमिव सम्प्राप्ता जानकी मुदिता भवत् चारु तद्वदनन्तस्यास्ताम्रशुक्लायते क्षणम् अशोभत विशालाक्ष्य राहुमुक्त इवोडुराट् ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिं विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम येनेदं राक्षसपदं त्वयैकेन प्रदर्शितं शतयोजनविस्तीर्णः सागरो मकरालयः विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः अर्हसे च कपिश्रेष्ठ मया समभिभाषितुं यद्यसि प्रेषितस्तेन रामेण विदितात्मना प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितं पराक्रममविज्ञाय मत्सकाशं विशेषतः दिष्ट्या सकुशली रामो धर्मात्मा सत्यसङ्गरः लक्ष्मणश्च महातेजः सुमित्रानन्दवर्धनः कुशली यदि काकुत्स्थः किन्नु सागरमेखलां महीं दहति कोपेन युगान्ताग्निरिवोत्थितः अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ममैव तु न दुःखानामस्ति मन्ये विपर्ययः कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः कच्चिन्न दीनसम्भ्रान्तः कार्येषु च न मुह्यते कच्चित्पुरुषकार्याणि कुरुते नृपतेः सुतः द्विविधं त्रिविधोपायमुपायमपि सेवते विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः कच्चित्पुरुषकारञ्च दैवञ्च प्रतिपद्यते कच्चिन्न विगतस्नेहः विवासान्मयि राघवः कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर सुखानामुचितो नित्यमसुखानामनूचितः दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः कच्चिन्नान्यमनारामः कच्चिन्मान्तारयिष्यति कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते वानराधिपतिश्रीमान् सुग्रीवः कच्चिदेष्यति मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति रौद्रेण कच्चिदस्त्रेण ज्वलतानि हतं रणे द्रक्ष्यां यल्पेण कालेन रावणं ससुहृज्जनं कच्चिन्न तद्धेम समानवर्णं तस्याननं पद्मसमानगन्धे मया विनाशुष्यति शोकदीनं जलक्षये पद्ममिवातपेन धर्मापदेशात्यजतश्च राज्यं माञ्चाप्यरण्यन्नयतः पदातिम् नासीद्व्यथा यस्य न भीर्न शोकः कच्चित् स धैर्यं हृदये करोति न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा तावत्वहं दूतजिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा श्रोतुं पुनस्तस्य वचोभिरामं रामार्थयुक्तं विरराम रामा सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् नत्वामि हस्तां जानीते रामः कमललोचने तेन त्वान्नानयत्याशु शचीमिव पुरन्दरः श्रुत्वैव तु वचो मह्यं क्षिप्रमीष्यति राघवः चमूं प्रकर्षन् महतीं हरिरक्षगणसङ्कुलाम् विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयं करिष्यति पुरीं लङ्कां काकुत्स्थश्शान्तराक्षसां तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः स्थास्यन्ति पथि रामस्य सतानपि वधिष्यति तवादर्शनजेनार्ये शोकेन सपरिप्लुतः न शर्म लभते रामः सिंहार्दित इव द्विपः मलयेन च विन्ध्येन मेरुणा मन्दरेण च दुर्दरेण च ते देवी शपे मूलफलेन च यथा सुनयनं वल्गो बिम्बोष्ठं चारुकुण्डलम् मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितं क्षिप्रं द्रक्ष्यसि वैदेही रामं प्रस्रवणी गिरौ शतक्रतुमिवासीनं नागराजस्य मूर्धनि नमांसन् राघवो भुङ्क्ते न चापि मधुसेवते वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमं नैव दंशान्न मशकान्न कीटान्न सरीसृपान् राघवोपनयेद्गात्रात्त्वद्गतेनान्तरात्मना नित्यं ध्यानपरो रामो नित्यं शोकपरायणः नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते दृष्ट्वा फलं वा पुष्पं वा यद्वान्यत्सु मनोहरं बहुशोहा प्रियेत्येवम् श्वसंस्त्वामभिभाषते स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका शरन्मुखे साम्बुदशेषचन्द्रा निषेव वैदेहसुता बभूव इत्यार्षे श्रीमद्रामायणे सुन्दरकाण्डे षट्त्रिंशः सर्गः सप्तत्रिंशः सर्गः सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना हनुमन्तमुवाचेदं धर्मार्थसहितं वचः अमृतं विषसंसृष्टं त्वया वानरभाषितं यच्च नान्यमनारामो यच्च शोकपरायणः ऐश्वर्ये वासु विस्तीर्णे व्यसने वासु दारुणे रज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् शोकस्यास्य कदापारम् राघवोऽधिगमिष्यति प्लवमानः परिश्रान्तो हतनौ सागरे यथा राक्षसानां वधं कृत्वा सूदयित्वा च रावणं लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः। स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते, अयं संवत्सरः कालस्तावद्धि मम जीवितं। वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम, रावणेन नृशंसेन समयो यः कृतो मम। विभीषणेन च भ्रात्रा मम निर्यातनं प्रति, अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्। मम प्रतिप्रदानं हि रावणस्य न रोचते, रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम्। ज्येष्ठा कन्या नला नाम विभीषणसुता कपे, तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्। असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः, उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता, विक्रमश्च प्रभावश्च सन्ति वानरराघवे। चतुर्दशसहस्राणि राक्षसानां जघानयः, जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नु द्विजेत्। न स शक्यस्तु लयितुं व्यसनैः पुरुषर्षभ, अहं तस्य प्रभावज्ञ शक्रस्येव पुलोमज। शरजालांशुमान् शूरः कपे रामदिवाकरः, शत्रुरक्षो मयन्तोऽयमुपशोषन्नयिष्यति। इति सञ्जल्पमानान्तां रामार्थे शोककर्षिताम्। अश्रुसम्पूर्णनयनामुवाच वचनं कपिः, श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम्। अथवा मोचयिष्यामि त्वामद्यैव वरानने, अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते। त्वां हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरं, शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्। अहं प्रस्रवणस्थाय राघवायाद्य मैथिली, प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः। द्रक्ष्यस्य द्वैव वैदेहि राघवंसः लक्ष्मणं, व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा। त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलं, पुरन्दरमिवासीनं नागराजस्य मूर्धनि। पृष्ठमारोह मे देवि मा विकाङ्क्षस्वशोभने, योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी। कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा, मत्पृष्ठमधिरुह्यत्वं ताराकाशमहार्णवम्। न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने, अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः। यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्, यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्। मैथिली तु हरिश्रेष्ठा श्रुत्वा वचनमद्भुतम्, हर्षविस्मित सर्वाङ्गी हनुमन्तमथाब्रवीत्। హనుమందూరమధ్వానం కథం మాం వోఢుమిచ్చసి తదేవ ఖలు తే మన్యే కపిత్వం హరియూథప కథం వాల్పశరీరస్త్వం మామితో నేతుమిచ్చసి సకాశం మానవేంద్రస్య భర్తుర్మే ప్లవగర్షభ. సీతాయా వచనం శ్రుత్వా హనుమాన్ మారుతాత్మజః చింతయామాస లక్ష్మీవాన్ నవం పరిభవం కృతం. నమే జానాతి సత్వం వా ప్రభావం వాసి తే క్షణ తస్మాత్ పశ్యతు వైదేహీ యద్రూపం మమ కామతః. ఇతి సంచింత్య హనుమాంస్తదా ప్లవగసత్తమః దర్శయామాస వైదేహ్యా స్వంద్రూపమరిమర్దనః. స తస్మాత్ పాదపాద్ధీమానాప్లుత్య ప్లవగర్షభః తతో వర్ధితుమారేభే సీతా ప్రత్యయకారణాత్. మేరుమందర సంకాశో బభౌ దీప్తానలప్రభః అగ్రతో వ్యవతస్థే చ సీతాయా వానరోత్తమః. హరిః పర్వత సంకాశస్తామ్రవక్త్రో మహాబలః వజ్రదంష్ట్రనఖో భీమో వైదేహీమిదమబ్రవీత్. సపర్వతవనోద్దేశాం సాట్టప్రాకారతోరణాం లంకామిమాం సనాథాం వా నయితుం శక్తిరస్తి మే. తదవస్థాప్యతాం బుద్ధిరలం దేవి వికాంక్షయా విశోకం కురు వైదేహీ రాఘవం సహ లక్ష్మణం. తందృష్ట్వాచల సంకాశమువాచ జనకాత్మజ పద్మపత్ర విశాలాక్షీ మారుతస్యౌరసంసుతం తవ సత్వం బలం చైవ విజానామి మహాకపే. వాయోరివ గతిం చైవ తేజశ్చాగ్నేరివాద్భుతం. ప్రాకృతోన్యః కథంచే మాం భూమిమాగంతుమర్హతి. ఉదధేర ప్రమేయస్య పారం వానరపుంగవ. జానామి గమనే శక్తిం నయనే చాపి తే మమ. అవశ్యం సంప్రధార్యాశు కార్యసిద్ధిర్మహాత్మనః. అయుక్తం తు కపిశ్రేష్ఠ మమ గంతుం త్వయానఘ. వాయువేగస వేగస్య వేగో మాం మోహయేత్తవ. అహమాకాశమాపన్నా హ్యుపర్యుపరి సాగరం. ప్రాపతేయం హి తే పృష్ఠాద్భయాద్వేగేన గచ్చతః. పతితా సాగరే చాహం తిమినక్రజశాకులే. భవేయమాశు వివశ యాదసామన్నముత్తమం. న చ శక్ష్యే త్వయా సార్ధం గంతుం శత్రువినాశన. కలత్రవతి సందేహస్త్వయ్యపి స్యాదసంశయః. హ్రియమాణాన్ తు మాం దృష్ట్వా రాక్షసా భీమవిక్రమాః. అనుగచ్చేయురాదిష్టా రావణేన దురాత్మనా. తైస్త్వం పరివృతశూరైః శూలముద్గరపాణిభిః. భవేస్త్వం సంశయం ప్రాప్తో మయా వీరకలత్రవాన్. సాయుధా బహవో వ్యోమ్ని రాక్షసాస్త్వం నిరాయుధః. కథం శక్ష్యసి సంజ్ఞాతుం మాంచైవ పరిరక్షితుం. యుధ్యమానస్య రక్షోభిస్తవ తైః క్రూరకర్మభిః. ప్రపతేయం హి తే పృష్ఠాద్భయార్తా కపి సత్తమ. అథ రక్షాంసి భీమాని महान्ति बलवन्ति च कथञ्चित् साम्पराये त्वां जयेयुः कपिसत्तम अथवा युध्यमानस्य पतेयं विमुखस्य ते पतितांच गृहीत्वा मां नयेयुः पापराक्षसाः मां वा हरेयुस्त्वद्धस्ताद्विषसेयुरथापि वा अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ अहं वापि विपद्येयं रक्षोभिरभितर्जिता त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् राघवस्य यशो हीये त्वया शस्तैस्तु राक्षसैः अथवा दाय रक्षांसि न्यसेयुः संवृते हि मां यत्र तेनाभिजानीयुर्हरयो नापि राघवौ आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः त्वया हि सह रामस्य महानागमने गुणः मयि जीवितमायत्तं राघवस्य महात्मनः भ्रातॄणां च महाबाहो तव राजकुलस्य च तौ निराशौ मदर्थन्तु शोकसन्तापकर्षितौ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् भर्तृभक्तिं पुरस्कृत्य रामादन्यस्य वानर न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव यदहङ्गात्र संस्पर्शं रावणस्य बलाद्गता अनीशा किं करिष्यामि विनाथा विवशा सति यदि रामो दशग्रीवमिह हत्वा सबान्धवं मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समाहि संयुगे समीक्ष्यतं संयतिचित्रकार्मुकं महाबलं वासवतुल्यविक्रमं सलक्ष्मणं को विषहेतराघवं हुताशनन्दीप्तमिवानिलेरितम् सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितं सहेतको वानरमुख्यसंयुगे युगान्तसूर्यप्रतिमं शरार्चिषं समीहरिश्रेष्ठसलक्ष्मणं पतिं सयूथपङ्क्षिप्रमिहोपपादय चिराय रामं प्रतिशोककर्षितां कुरुष्व मां वानरमुख्यहर्षिताम् इत्यार्षे श्रीमद्रामायणे सुन्दरकाण्डे सप्तत्रिंशः सर्गः।